अथ घनपाठः त्रिपादोर्ध्वमुदयेत् पुरुषः पादोस्येहाभवत् पुनः ततो विश्वम् व्यक्रामन्नाशनानशने अभि जातो अत्यरित्य तपश्चात् भूमिमथो पुरः त्वागणानां गणानां त्वा
पुरुषं जातमक्रमः